कल्पान्ते कालसृष्टेन यदन्धेन तमसावृतम् कल्पान्ते कालसृष्टेन यदन्धेन तमसावृतम् अभिव्यनग् जगद् इदं स्वयं ज्योतिस्वरोचिषा।